ॐ नमो भगवते वासुदेवाय। अथ द्वितीयोऽध्यायः। श्रीशुक उवाच। एवं पुराधारणयात्मयो निर्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात्, तथा ससर्जेदममोघदृष्टिर्यथाप्ययात् प्राग्व्यवसाय बुद्धिः। शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः। परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः। अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसाय बुद्धिः। सिद्धेऽन्यथार्थे नयते तत्र परिश्रमं तत्र समीक्षमाणः। सत्यांक्षितौ किं कशिपोः प्रयासैर्बाहौ स्वसिद्धेयुपबर्हणैः किम्। सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः। चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन्। रुद्धा गुहा किमजितोऽवतिनोपसन्नान् कस्मात् भजन्ति कवयो धनदुर्मदान्धान्। एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवानन्तः। तं निर्वृतो नियतार्थो भजेत संसारहेतु परमश्च यत्र। कस्तां त्वनादृत्य बलानुचिन्तामृते पशून सतीं नाम युञ्ज्यात्। पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान् परितापाञ्जुषाणम्। केचित् स्वदेहान्तहृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम्। चतुर्भुजं कञ्जरथाङ्गशङ्ख गदाधरं धारणया स्मरन्ति। प्रसन्नवक्त्रं नलिनायते क्षणं कदम्बकिञ्जल्कपिशङ्गवाससम्। लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम्। उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम्। श्रीलक्ष्मणं कौस्तुभरत्नकन्धर ममलानलक्ष्म्या वनमालयाचितम्। विभूषितं मेखलयाङ्गुलीयकैर्महाधनैर्नूपुरकङ्कणादिभिः। स्निग्धामलाकुञ्चितनीलकुन्तलैर्विरोचमानाननहासपेशलम्। अदीनलीलाहसिते क्षणोल्लसद्भ्रूभङ्गसंसूचितभूर्यनुग्रहम्। ईक्षेतचिन्तामयमेनमीश्वरं यावन्मनोधारणयावतिष्ठते। एकैकशोऽङ्गानि धियानुभावयेत् पादादि यावद्धसि तं गदाभृतः। जितं जितं स्थानमपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा। यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरिभक्तियोगः, तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतस्मरेत। स्थिरं सुखं चासनमाश्रितो यतिर्यदा जिहासुरिममङ्गलोकम्। काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन्मनसा चितासुः। मना स्वबुद्ध्या मलया नियम्य क्षेत्रज्ञ एतां निनयेत्तमात्मनि। आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात्। न यत्र कालो निमिषां परप्रभुः कुतो नु देवा जगतां य ईशिरे। न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम्। परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षवः। विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्ह पदं पदे पदे। इत्थं मुनिस्तु परमेद्व्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशयः। स्वपार्ष्णिना पीड्यगुदं ततो निलं स्थाने सुसत्सून्नमयेज्यतक्लमः। नाभ्यां स्थितं हृद्यतिरोप्य तस्मादुदानगत्यो रसितं नयेन्मुनिः। ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं सनकैर्नयेत। तस्माद्भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्षः। स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिर्निर्भिद्यमूर्धन् विसृजेत् परङ्गतः। यदि प्रयास्यन् नृपपारमेष्ठ्यं वैहायसानामुत यद्विहारम्। अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च। योगेश्वराणां गतिमाहुरन्तर्बहिस्त्रिलोक्याः पवनान्तरात्मनाम्। न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपो योगसमाधिभाजाम्। वैश्वानरं याति विहाय सागतः सुषुम्नया ब्रह्मपथेन शोचिषा। विधूतकल्कोतहरेरुदस्तात् प्रयाति चक्रं नृपशैषुमारम्। तद्विश्वनाभिं त्वतिवर्त्य विष्णोरणीयसा विरजेनात्मनैकः। नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यत् विभुधारमन्ते। अथो अनन्तस्य मुखानलेन दन्दय्यमानं स निरीक्ष्य विश्वम्। निर्याति सिद्धेश्वरजुष्टधिष्ण्यं यद्वै परार्ध्यं तदुपारमेष्ठ्यम्। न यत्र शोको न जरा न मृत्युर्नार्तिर्न चोद्वेगरिते कुतश्चित्। यच्चित्ततोदः कृपया निदं विदां दुरन्त दुःख प्रभवानुदर्शनात् ततो विशेषं प्रतिपद्य निर्भयस्तेनात्मनापो नलमूर्तिरत्वरन् ज्योतिर्मयो वायुमुपेत्य काले वायवात्मनाखं बृहदात्मलिङ्गम् घ्राणेन गन्धं रसनेन वैरसं रूपं तु दृष्ट्या श्वसनं त्वचैव श्रोत्रेण चोपेत्य नभो गुणत्वं प्राणेन चाकूतिमुपैति योगी स भूतसूक्ष्मेन्द्रियसन्निकर्षं मनोमयं देवमयं विकार्यम् संसाद्य गत्या सहतेन याति विज्ञानतत्त्वं गुणसन्निरोधम् तेनात्मनात्मानमुपैति शान्तमानन्दमानन्दमयोऽवसाने एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग एते श्रुतीते नृपवेदगीते त्वया विपृष्टेह सनातने च ये वै पुरा ब्रह्मण आह पृष्ट आराधितो भगवान् वासुदेवः नयतोऽन्यः शिवः पन्था विशतः संसृताविह वासुदेवे भगवति भक्तियोगो यतो भवेत् भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया तदध्यवस्यत्कूटस्थोरतिरात्मन्यतो भवेत् भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान् नृणाम् पिबन्ति ये भगवतात्मनः सताम् कथामृतं श्रवणपुटे सुसंभृतम् पुनन्ति ते विषयविदूषिताशयम् व्रजन्ति तच्चरणसरोरुहान्तिकम् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीयस्कन्धे पुरुषसंस्थावर्णनम् नाम द्वितीयोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।